एकदंताय विद्महे वक्रतुंडाय धीमहे तन्नो दन्ति प्रचो विनायकं भक्तावासं स्मरे नित्यं आयुकामार्थसिद्धये प्रथमं वक्रतुंडं च एकदंतं द्वितीयकं तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकं विकटमेव च सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमं नवमं भालचन्द्रं च दशमं विनायकं एकादशं गणपतिं द्वादशं तु गजानन शैतानि नामानि त्रिसंध्यं यः पठेन्नरः न च विघ्नभयं तस्य सर्वसिद्धिकर प्रभु विद्यार्थी लभते विद्यान् धनार्थी लभते धनम् पुत्रार्थी लभते मोक्षार्थी लभते गतिम् जपे गणपति स्तोत्रम् षड्भिर्मासैः फलम् लभेत् संवत्सरेण सिद्धिं च लभते नात्र संशयः अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः